नमस्सर्वेभ्यः अद्य प्रौढमनोरमायाः सन्धिप्रकरणे एकादशः पाठः मे मासस्य दशमः दिनाङ्कः येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ध्यायं ध्यायं परं ब्रह्मस्मारं स्मारं गुरोर्गिरः सिद्धान्तकौमुदी व्याख्यां कुर्मः प्रौढमनोरमाम् एतेधत्युट्सु इति सूत्रमधीतम् किञ्चित् पुनरावर्त्य अग्रे सरामः एतेधत्युट्सु अत्र एचि इति अनुवर्तते तच्च एतेरेव विशेषणम् नत्वेधतेः अव्यभिचारात् नापि ऊठः असम्भवात् इति प्राञ्चः वृद्धिरेचि इत्यतः एचि इति पदम् यदनुवृत्तम् अत्र त्रयः पदार्थाः सन्ति अस्मिन् सूत्रे एति नाम इन्धातुः एधति नाम एधधातुः ऊठ् इति सम्प्रसारणम् तत्र एचि इति कस्य विशेषणम् इति प्रश्नः एतेरेव विशेषणम् इण् धातोरेव विशेषणं भवति यतः इण् धातौ एति इतः यन्ति इत्यादीनि रूपाणि तत्र एजादीन्यपि रूपाणि भवन्ति एजादिभिन्नान्यपि रूपाणि भवन्ति यत्र एजादित्वमस्ति तत्रैव वृद्धिः इति वक्तुम् एतेरेव विशेषणम् न तु एधतेः अव्यभिचारात् एतधातोः रूपाणि तु सर्वदा एजादीन्येव अतः तत्र एति इति विशेषणम् नापेक्ष्यते नाप्युठः असम्भवात् ऊठ् तु कदापि एजादिः न भवति सर्वदा ऊकाररूप एव भवति अतः तत्रापि एति इति विशेषणं न सम्बध्यते इति प्रान्तः प्रक्रियाकौमुद्याम् अत्र कैयटः एधतेरपि विशेषणम् मा भवान् प्रेदिधत् इत्यत्र व्यभिचारात् एध धातोः निजन्तात् लुङ् लकारे एधि लुङ् इत्यस्यते छ्लि प्रत्ययः तस्य स्थाने चङ् आदेशः चङ् परेण औचङ्गपथायाः ह्रस्वः इति ह्रस्वे कृते इध् इति भवति ततः द्वित्वादिषु कृतेषु इदिधत् इति भवति तत्र माङ् योगात् आडागमनिषेधे इदिधत् इति रूपम् स तु एजादिः नास्ति एजादित्वभिन्ने स्थले वृद्धिः मा भूत् इत्येतदर्थम् एचि इति एधतेरपि विशेषणम् भवति इति कैयटः अत्र कैयटः एधतेरपि विशेषणम् मा भवान् प्रेरिधदित्यत्र व्यभिचारात् यद्यपि इदम् कैयटपुस्तकेषु प्रायेण न दृश्यते तथापि क्वचित् दृश्यते एव न च नौचङी इति ह्रस्वे कृते नायमेधतिः इति वाच्यम् एकदेशविकृतस्य अनन्यत्वात् तेन न्यायेन इध् इत्यपि एधधातोरेव रूपम् न च एवमपि अजादयद्वितीयस्य इति धिशब्दस्थाने धीधि शब्दादेशे सति वस्नसोरिव प्रकृतिप्रत्ययविभागसम्मोहः इति वाच्यम् निष्प्रयोगो द्विर्वचनम् षष्ठम् इति षष्ठभाष्ये स्थान्तितत्वात् अन्यथा इहैव निलोपो न स्यात् यदि धीशब्दस्य स्थाने धिधि शब्दस्य आदेशः तत्र का प्रकृतिः कः प्रत्ययः इति वक्तुम् न शक्यते तर्हि नेरन्ति इत्यनेन निलोपः न स्यात् अतः दुष्प्रयोगः द्विर्वचनम् इति शास्त्र अङ्गीतकर्तव्यम् अन्यथा इहैव निलोपो न स्यात् जिघांसति इत्यादौ सनस्सकारेण विशिष्टस्य द्वित्वे कृते कुत्वम् च न स्यात् हन् धातोः कुत्वम् क्रियते द्वित्वानन्तरम् यदि प्रकृतिः न ज्ञायते तर्हि धातोः कुत्वम् कर्तुम् न शक्नुमः न स अन्तरङ्गत्वात् प्रथमम् चङीति द्वित्वे कृते ह्रस्वो न भवत्येव इति वाच्यम् ओणेः रदित्करणेन बहिरङ्गस्यापि णौचङी इति ह्रस्वस्य प्रथमम् प्रवृत्तिः इति ज्ञापितत्वात् एतदपि दृष्टम् चङी इति अन्तरङ्गम् णौचङ्गिपधायाः ह्रस्वः इति बहिरङ्गम् बहुपेक्षत्वात् तथापि नात्योऽपि शास्त्रुदिताम् इति रुदिताम् ह्रस्वनिषेधः कृतः अत्र ऊण्ड्र इति धातुः रुदित् पठितः तस्य प्रयोजनम् तु ह्रस्वनिषेधः एव तेन ज्ञायते आदौ ह्रस्व एव भवति अत्र माधवः मा भवान् प्रेदिधत् इत्यत्र नातिप्रसङ्गः ण्यन्तस्य शब्दान्तरत्वात् एधति ग्रहणेन अग्रहणात् निजन्तः भिन्नशब्दः शुद्धधातुग्रहणस्थले निजन्तस्य ग्रहणम् न भवति इति माधवस्य वादः अतएव हि नभाभूपु कविगमी इत्यर्थ ण्यन्तानां च भारीणाम् उपसंख्यानम् इत्युक्तम्। तत्रैव शब्दान्तरत्वादप्राप्तौ उपसंख्यानम् इति कैयट न्यासकार हरदत्तादिभिः सर्वैरेव उक्तम्। किञ्च नेधिकस्यापि ग्रहणे उपसर्गात् सुनोति इत्यत्र अभिशावयति इति उदाहृत्य ण्यन्तेन अभेदयोगात् सुनोतिं प्रति अनुपसर्गत्वात् कथं शक्तम् इत्याशङ्क्य अभेः प्रकृत्यर्थविशेषकत्वेन समाधानं भाष्यकारादिक्तम् असङ्गतं स्यात्। एकः प्रथमः अंशः नभाभूपु इति ण्यन्तानाम् उपसङ्ख्यानं वार्तिककारेण उच्यते, तेन ज्ञायते ण्यन्तस्य ग्रहणं न भवति इति। द्वितीयम् उपसर्गात् सुनोति इत्यत्र ण्यन्तस्य उदाहरणं प्रदर्श्य भाष्यकारेण प्रश्नः पृष्टः कथं ण्यन्तस्य भवति इति पृष्ट्वा तस्य उत्तरं दत्तम्। तृतीयं तु न च हेरसङ्गी इति लिङ्गात् प्रकृतिग्रहणेन अधिकस्यापि ग्रहणमिति भ्रमितव्यं ज्ञापकस्य कुत्वमात्रविषयकत्वात्। हेरसङ्गी इत्यत्र चङ्भिन्ने हे कुत्वं विधीयते, किन्तु तत्र किं ज्ञापकम्? हेश्चङि प्रतिषेध अनर्थक्यम् अङ्गान्यत्वात् इति। ज्ञापकं तु चङो अन्यत्र ण्यन्तेऽपि कुत्वभावस्येति। कुत्वं शुद्धधातोरपि भवति ण्यन्तस्यापि भवति चङ्भिन्नस्थले इत्येव ज्ञापकं, न तु सर्वत्र प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणम्। तस्मात् युक्तिविरोधात् भाष्यवार्तिकवृत्तिन्यासादिग्रन्थैः पूर्वपरस्वग्रन्थेन च विरोधात् उपेक्ष्योऽयं कैयटः। इयं कैयटपङ्क्तिः न साध्वी इति माधवस्य आशयः। तत्र दीक्षिताः वदन्ति अत्रेदं वक्तव्यम्। अस्तु विशिष्टस्य शब्दान्तरत्वं, तावदापि प्रकृतिभागस्य येच्छूपत्वं केनापगतम् इति अवधार्यताम्। सत्यं विशिष्टः निज्विशिष्टः शब्दान्तरमिति सत्यम्, तथापि तत्र या प्रकृतिः तस्य येच्छूपत्वम् अस्त्येव तस्याः न हि उपैधते इत्यादौ तिङन्तस्य येच्छूपता नास्ति इति प्रकृत्यंशे साहीयते। एधधातोः तिङ्प्रत्ययकृते एधते इति रूपं, तत्र प्रत्ययविशिष्टं शब्दान्तरमेव, तथापि प्रकृतिः एधधातुः इति परिगणय्य एव उप एधते उपैधते इति वृद्धिः क्रियते। एवमपि अत्र निच्छिति प्रत्ययः प्रत्ययविशिष्टं शब्दान्तरं, तथापि प्रकृतिभावः एधधातुः इति मत्वा अत्रापि वृद्धिः प्रसज्येत इति आक्षेपः। न ह्युपैधते इत्यादौ तिङन्तस्य इत्युपता नास्ति इति प्रकृत्यंशे साहीयते, तथा च उपसर्गात् शृणोति इति सूत्रे वार्तिकं सिद्धन्तो अवयव अनन्यत्वादिति। तदेव वार्तिककारेण उच्यते अवयव अनन्यत्वं, स एव अवयवः नाम प्रकृतिः सा एव, अतः अत्रापि भवति इति। यत्त्वभिशावयति इत्यत्र भाष्यविरोधोद्भावनं तद्विपरीतम्। यतः प्रकृते शृणोति रूप अनपायात् कैयटमते सिद्धा यथोक्तव्यवस्था। कैयटमते यद्यपि निगन्तं शब्दान्तरं, तथापि प्रकृतिः सुधातुरेव इत्यतः उपसर्गात् शृणोति इत्यनेन षत्वं सिद्ध्यति। त्वन्मते तु रूपान्तरत्वेन ण्यधिकस्य अग्रहणात् असङ्गत इव प्रागुक्तव्यवस्था स्यात्। माधवमते एव दोषः, तद्रूपम् अभिशावयति इति रूपं न सिद्ध्यति। को हि एधयति सावयत्यो विशेषः, एधतेः ण्यधिकस्य अग्रहणं शृणोतेस्तु ग्रहणमिति। यदपि ण्यन्तभादीनाम् उपसङ्ख्यानमुपन्यस्तम् तदपि नास्माकं प्रतिकूलम्। विशिष्टस्य शब्दान्तरत्वेन प्रकृत्यंशस्य तु निचाव्यवधानेन उपसङ्ख्यानस्य आवश्यकत्वात्। तत्र दृष्टान्ते ण्यन्तभादीनाम् उपसङ्ख्यानमित्यत्र निगन्तात् परस्य धातोः परस्य प्रत्ययस्थनकारस्य णत्वं विधीयते। तत्र प्रकृतिः यद्यपि सैव धातुः, तस्य प्रत्ययनकारस्य च मध्ये निजस्ति इति व्यवधानमस्ति। निजन्तं तु शब्दान्तरम्, अतः तत्र उपसङ्ख्यानम् अपेक्ष्यते। यत्र तु प्रकृत्यंशे कार्यं क्रियते तत्र उपसङ्ख्यानं नापेक्ष्यते। अत एव न तत्रत्यन्यासादिभिः स्वोक्त्या वा विरोधः, प्रत्युत तवैव विरोधः। षष्ठे भाष्यमार्तिकयोः एत्येधत्योः इति योगं विभज्य एचि इति विशेषितत्वात्, तस्मादिह वृत्तिग्रन्थः माधवग्रन्थश्च असङ्गत एव इत्यभिप्रेत्य वाचष्टे एजाद्योः इति। तदेव सिद्धान्ते एचि इति एतेरपि विशेषणम् एधतेरपि विशेषणम्। एनी क्वेश्चन्स्? if I remind you, there is an assignment for people who did not attend last class. There is an assignment on Etyedhat Yutsu. Prodha Manora Mokta Ritya Etyedhat Yutsu. It is Utram Pratipadaniyam. Kaha Purva Pakshaha Kasiddhantaha Iti Prushtha Dvayeva Trayeva. At maximum of 2 or 3 pages. Okay. Arguments made and replies to those arguments. Okay, so due by end of May. Agresaramaha Aksha Duhinya Upasankhyanam Iti Vartikam Siddhanta Kaumudyam Aksha Uhini Sena Iti Udaharanam Aksha Uhini Itasti Tatra Gune Prapte Tat Badhitva Anena Vartikena Vrithihi Vidhiyate Aksha Uhini Iti Rupam Siddhati Aksha Uhini Iti Uhaha Asti Asya Uhini Akshanam Uhini Iti Vigraha Adokim Pavati Uhaha Asti Asti Iti Uhini यथा गुणिनी दंडिनी इति वद इनि प्रत्ययः तस्य स्त्रीलिंगे इनि उहिनी इति भवति अक्षराणां उहिनी अक्षौहिनी इति विग्रहः परिमाण विशेष विशिष्टा सेना अक्षौहिनी का नाम अक्षौहिनी परिमाण विशेष विशिष्टा सो अ नामी ऑफ अ पर्टिकुलर मेजर इज कॉल्ड अक्षौहिनी सेना विशेषे रूढं पदम सो इवन दो ही गिव्स द विग्रह What is Aksha, what is Uhini will not matter here because it is not an word which depends, it is not a yogika. Yatra yogikam padam tatraiva vyutpatthi vyutpatya arthaha jnayate. If it is a yogika pada, then looking at the etymology, we understand the meaning. Okay. But if it is a rudha pada, we will not understand the meaning looking at the etymology. So here also, it is just there for prakriya. The meaning is a particular measure of army. Akshohinyas pramanantu khagashtaikadvikair gajaihi rathair etair hayais trikshnaihi panchajnaichcha padadivihi iti Mahabharate. So, ka naam Akshohini? Akshohinyas pramanantu khagashtaikadvikaihi gajaihi. The number of elephants is kha. Kham nama shunyam ityartha. It is in Sanskrit we have this very special way of representing numbers by terms. Like say if you say here agaha is parvata. So there are sapta parvataha. So aga represents 7. So kham is akasha. It represents shunya or 0. Ashtau. So and then he tells actual numbers. Ashta eka dvika. So this is the number. And we always take it sankhyanam vamato gatihi. So from the opposite. Okay. So here we take from here. So it comes left. So the actual number here is 21870. Okay. So that is the number of gajaha. Akshauhinya pramanam tu kha aga ashtaika dvikaihi gajaihi rathai retaihi. So rathas are also in the same number. And Akshauhini has 4 components. Gaja, Ratha, Ashwa, Padati. So elephants, chariots, horses and foot warriors. So Tatra, Gajaha, Rathaha, Etanam, Etesham, Sankhya, Bhavati, Etavati. Saptatyadhika, Ashtashatottara, Ekavimshati, Sahasram. Gajaha, Rathashta. Trighnaihi, Hayaihi. So the number of horses is thrice of this. Okay. Trighnaihi, Trigunitaihi, Ashwaihi. Nama etavat. 65,610 Ashwaha. Panchadhnaishcha padatibhihi. Asyaha sankhyayaha. Panchagunitam. Padatayaha bhavanti. Ekalakshadhika. Navasahasrottara. Panchasharuttara. Trishatam. Padatayaha bhavanti. Okay, so this is one Akshauhini. So the amount of one Akshauhini is this. So we know the famous thing where say in the Mahabharata there were 11 Akshauhinis on the Kaurava side and 7 on the Pandavas. So on. Tattu bhinnam Akshauhinyaha kortaha iti jnatam. Atra katham padam iti Akshauhini iti asti. Purvapada sanyayam adaha iti nattvam. संज्ञायाम् अक्षौहिणी इति संज्ञा सेनाविशिष्टस्य संज्ञा अतः अक्ष ऊहिणी वृद्धौ कृते अक्षौहिणी इति उच्यते पूर्वपदे निमित्तमस्ति षकारः अक्ष इत्यत्र षकारः तस्मात् नकारस्य णत्वं भवति पूर्वपदसंज्ञायाम् अकः इति सूत्रेण यत्तु प्राचा विगृहीतम् पूर्वतनग्रन्थे प्रक्रियाकौमुद्यां किमस्ति अक्षाणाम् ऊहः समूहः सः अस्ति अस्याः सा अक्षौहिणी आदौ समासः कृतः दीक्षितैः किं कृतम् ऊहः अस्य अस्ति इति ऊहिणी आदौ तद्धितः कृतः ततः अक्षाणाम् ऊहिणी इति समासः प्राचा किं कृतम् आदौ समासः कृतः अक्षाणाम् ऊहः अस्ति सः अस्ति ऊहः नाम समूहः सः अस्ति अस्याः इति अनन्तरं तद्धितोत्पत्तिः प्रदर्शिता तदपि ऊहिणी शब्देन षष्ठी तत्पुरुषः इत्येवं परतयैव कथञ्चिन्नेयम् कथञ्चित् तत्रापि एवमेव व्याख्या कर्तव्या आदौ ऊहिणी शब्दः अस्ति समूहः नाम ऊहः नाम समूहः अस्याः अस्ति इति ऊहिणी ततः अक्षाणाम् ऊहिणी इति कर्तव्यम् कथञ्चिन्नेयम् किमर्थम् ऊहशब्देन समासे ततः इनौ तु वृद्धिः न स्यात् इफ् यु फस्ट् डू द समास अक्षाणाम् ऊहः अक्ष ऊहः इत्यस्ति तत्र किं भवति गुण एव भवति आद्गुणः इत्यनेन अक्षात् ऊहिण्याम् एव उपसङ्ख्यानं क्रियते अक्षशब्दात् ऊहिणी शब्दे परे एव वृद्धिः विधीयते यदि ऊहशब्दः अस्ति तर्हि अक्षाणामूहः अक्षोहः इति गुणो भवति ऊहशब्देन समासे तत इनौ तु वृद्धिर्न स्यात् अन्तरङ्गेण गुणेन बाधात् अपवादभूतायाः अपि वृद्धेः ऊहिणी शब्देन विग्रहे चरितार्थत्वात् Even though this vritti is an apavada to guna, it will happen when there is uhini shabda, not when there is uha, then you do in and then derive uhini, thus tatra na bhavati. Tatha choktam prak, innishina madgunaha savarna dhikhatva diti. We have seen this earlier in the paribhasha prakarana. Apavadaha. अपवादोपि यद्यन्यत्र चरितार्थः तर्हि अन्तरङ्गेण बाधत एव इति आसीत् कथम् इन्निषीणाम् आद्गुणस्य वर्णदीर्घत्वात् इति अयज ई इन्द्रम् इत्यस्ति इन् इट् इट् वहि महिङ् इत्यत्र आत्मनेपदे उत्तमपुरुष एकवचनप्रत्ययः ई इति ग्राम ई इह अत्र ई इति ङि सप्तमी एकवचनप्रत्ययः सर्व ई इत्थम् अत्र ई इति शी यशी अत्र सर्वत्र आदौ सवर्णदीर्घः भवति वा ई इन्द्रम् ई इह ई इत्थम् इत्यत्र सवर्णदीर्घः भवति वा गुणः अयज ई ग्राम ई सर्व ई इत्यत्र गुणः भवति वा इति प्रश्नः सवर्णदीर्घः गुणस्य अपवादः तथापि समानाश्रये चरितार्थः यत्र उभौपि वर्णौ समाने पदे भवतः तत्र सवर्णदीर्घः चरितार्थः अत्र तु भिन्नं पदम् इन्द्रम् इति भिन्नं पदम् अत्र ई इति भिन्नं पदम् एवमत्रापि अतः अत्र गुण एव भवति न तु सवर्णदीर्घः इन्निषीणाम् आद्गुणः अन्तरङ्गत्वात् यतोहि पूर्वोपस्थितनिमित्तकत्वं सो दिस् प्रत्यय कम्स् फस्ट् एण्ड् देन् यु हाव् अनदर् वर्ड् सो गुण इस् पूर्वोपस्थित निमित्तकत्वा एण्ड् हेन्स् अन्तरङ्ग सवर्णदीर्घ बहिरङ्ग अन्तरङ्गत्वादत्र गुण एव भवति अयजे इन्द्रम् ग्रामे इह सर्वे इत्थम् इति रूपाणि साधितानि सदैव इङ्गिषीणाम् आद्गुणः सवर्णदीर्घत्वात् भवति अन्तरङ्गत्वात् इति वार्तिकम् एवमेव अत्रापि यदि आदौ समासः क्रियते तर्हि गुण एव भवति वृद्धिर्न भवति अतः आदौ ऊहिणी इति शब्दः निष्पाद्यते अनन्तरं तेन शब्देन समासः क्रियते अग्रिमं वार्तिकमस्ति स्वादीरेरिणोः कः सः स्वात् ईर ईरिणोः स्वशब्दात् ईर शब्दे परे ईरिन् शब्दे परे च वृद्धिर्भवति इति वार्तिकार्थः स्वैरः स्व ईरः स्वैरः स्वेन ईरितुं शीलमस्य इति स्वैरी ईरिन् इत्यत्र स्वैरी ईरिन् इति प्रातिपदिकं तस्य प्रथमैकवचने स्वैरी स्वेन ईरितुं शीलमस्य इति स्वैरी स्वैरिणी स्वैरिन् इत्यस्य स्त्रीलिङ्गे स्वैरिणी एतानि उदाहरणानि मूलस्थानि कौमुद्यामेव सन्ति स्वाधीरेणोः इति मनोरमायां किमुच्यते, ईर ईरिण्योः इति क्वचित् कः अपपाठः, स्वाधीरेणोः इति क्वचित् दृश्यते. सो ही सेज़ क्वचित् कः अपपाठः, दट् पाठ इस् राङ्ग्. इट् इस् ईर ईरिणोः, नाट् ईर ईरिण्योः. किमर्थम्? स्वैरी इति न्यन्यन्तस्य स्त्रियां वृद्ध्यभाव प्रसङ्गात्. यदि ईरिण्योः इति उच्यते तर्हि ईरिणी शब्दे परे एव वृद्धिः, नाम स्वैरिणी इत्येव भवति. स्वैरी इत्यत्र अस्त्रियां, निन्यन्तस्य अस्त्रियां वृद्ध्यभाव प्रसङ्गात् वृद्धिः न स्यात्. यदि अत्र साक्षात् ईरिण्योः इति उच्यते तर्हि स्वैरिन्, स्वैरी इत्यत्र वृद्धिः न भवति. स्वैरिणी इत्यत्र तु इदानीम् ईर ईरिणोः इत्युक्ते स्वैरी इत्यत्र भवति. स्वैरिणी इत्यत्र तु नीपः प्राग्भागमाधाय वृद्धिः बोध्या. स्वैर ईरिन् ई इत्यस्ति, ईरिन् इत्यस्मात् ऋन्नेभ्योङीप् इत्यनेन ङीप्, तत्र ईरिन् इति प्रकृतिभागमाश्रित्य स्वैरिणी इत्यत्रापि वृद्धिः भवति. स्वाधीरेणोः इति पाठे पुल्लिङ्गेऽपि वृद्धिर्भवति, स्त्रीलिङ्गेऽपि भवति. यदि ईरिण्योः इति पाठः तर्हि स्त्रीलिङ्गे भवति, पुल्लिङ्गे न स्यात्. अतः ईर ईरिण्योः इति क्वचित् कः अपपाठः, स्वैरी इति निन्यन्तस्य अस्त्रियां वृद्ध्यभाव प्रसङ्गात्. स्वैरिणी इत्यत्र तु नीपः प्राग्भागमाधाय वृद्धिर्बोध्या. यत्तु व्याचक्षुः लिङ्गविशिष्टपरिभाषया इति तन्निष्फलम्. लिङ्गविशिष्ट प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् इति परिभाषा अस्ति. अतः ईरिन् शब्दे गृह्यते ईरिणी शब्दस्यापि ग्रहणं भवति इति वक्तुमपि शक्यते, तन्निष्फलम्. किन्तु परिभाषायाः आश्रयणे फलं नास्ति, यतोहि ततः प्रकृतिभागमाश्रित्यैव भवति. When you are doing it, the prakriti is still ईरिन्, so just like we did in इदिधत्. प्रकृतिभागम् आश्रित्य कार्यं प्रवर्तयितुं शक्नुमः, अतः लिङ्गविशिष्टपरिभाषाश्रयणं नापेक्ष्यते अत्र. अग्रिमं वार्तिकं प्रादुहोढोढ्येषैष्येषु. प्रात् ऊह ऊढ ऊढि एष एष्येषु इति छेदः. प्रात् वेन् प्र इस् फालोड् बै दीस् देर् इस् वृद्धि, वृद्धिर्भवति इति वार्तिकार्थः. प्रौहः प्रौढः प्रौढिः प्रैषः प्रैष्यः इति उदाहरणानि भवन्ति. अत्र ऊहशब्दः कैश्चित् प्रक्षिप्तः, भाष्यादौ तु न दृश्यते इति प्रान्तः. प्रक्रियाकौमुद्यां किमस्ति, ऊहशब्दः अस्ति किल, सः प्रक्षिप्तः, इट् इस् एन् लेटर् एडिशन्. भाष्यादौ न दृश्यते, नाट् सीन् इन् द भाष्य इति प्रान्तः. सो दट् इस् वाट् द प्रक्रियाकौमुदीकारः सेस्. इदानीन्तनपुस्तकेषु तु भाष्यवार्तिकयोः ऊहशब्दः दृश्यते एव. You can see that, I mean, they are all not printed books, so they were all relying on manuscripts. So we do not know how much the Prakriya Kaumudi was somewhere in the 12th century, whereas Siddhanta Kaumudi was Bhattacharya Dikshita, lived in 15th or 16th. So in the 300 years, we do not know what happened. I mean, Ramachandra clearly states that it is not seen in Bhashya, it is Prakshipta. Iranintana Pustakeshatu, but by the time the manuscripts were copied over generations and handed over to Bhattavadi Nikshita, he says it is seen everywhere. Bhashyavartika yohu uha shabdaha drishyata eva. So he has included it here. So that's all he has about this. Atra kachit paribhasha uddhiyate siddhanta kamudyam eva arthavat grahane nanarthakasya grahanam. अनर्थकस्य अर्थवत् ग्रहणे यत्र अर्थवत् शब्दस्वरूपं गृह्यते तत्र अनर्थकस्य ग्रहणं न भवति. उपस्थितस्य अर्थस्य शब्दं प्रति विशेषणत्वसम्भवे त्याग अयोगाद् इति भावः. वै इस् दिस् परिभाषा, बिकास् द क्वेश्चन् अरैसेस् बिकास् इन् व्याकरण वी डील् ओन्ली वित् शब्दास्. स्वं रूपं शब्दस्य इति उच्यते. शब्दस्य यद् रूपं तस्यैव प्राधान्यं भवति, न तु अर्थस्य. तथा सति उदाहरणम् अत्र किमर्थम् आगतम्? ऊढ इत्यस्ति क्तप्रत्ययान्तः, ఊఢవాన్ ఇత్యస్తి కృతవతు ప్రత్యయంత యథా గతః గతవాన్ తథా ఊఢః ఊఢవాన్ ఇత్యస్తి. ఊఢ ఇది కృత ప్రత్యయంతే అపి ఊఢ ఇత్యస్తి. ఊఢవాన్ ఇది కృతవత్ ప్రత్యయంతే అపి ఊఢ ఇత్యస్తి. తత్రాపి వృద్ధి భవతి వా ఇది ప్రశ్న. ప్ర ఊఢః ప్రౌఢః. ప్ర ఊఢవాన్ ప్రౌఢవాన్ ఇది వృద్ధిర్భవతి వా ఇది ప్రశ్న. కిమర్థం ప్రశ్నస్య కః ఆశయః? వ్యాకరణే శబ్దస్యైవ ప్రాధాన్యం. యత్ర యత్ర ఊఢ ఇది శ్రూయతే తత్ర సర్వత్ర వృద్ధిర్భవతు ఇది ఆశయః. అత్ర ఉచ్యతే అనయా పరిభాషయ న భవతి. అర్థవత్ గ్రహణే అనర్థకస్య గ్రహణం న. యత్ర ఊఢ ఇది సమగ్రస్య అర్థవత్వం. కృత ప్రత్యయాంతస్య ఊఢ ఇత్యస్య అర్థవత్వం అస్తి. తస్య గ్రహణం భవతి. ఊఢవాన్ ఇత్యత్ర తు కృతవతు ప్రత్యయాంతస్య ఊఢవాన్ ఇది సముదాయస్యైవ అర్థవత్వం. నతు కేవల ఊఢ ఇత్యస్య. వెన్ ఇట్ ఇస్ అ పార్ట్ ఆఫ్ కృతవతు ద పార్ట్ ఊఢ డస్ నాట్ క్యారీ ఎనీ మీనింగ్. The dhatu there is vahadhatu. The dhatu is meaningful. The pratyaya tavatu is meaningful. But you are joining a part of that pratyaya. The dha there is from the ta of tavatu. Okay, so you are joining it. You can see it better in gata and gatavan. Gata ityatra kta pratyaya ha tasya arthavatam asti. Gatavan ityatra ga iti dhatu hu ta iti pratyaya se ekaha bhagaha. తత్ర గత ఇత్యస్య అర్థవత్వం నాస్తి. గమ్ ధాతోః అస్తి, తవతు ఇది ప్రత్యయస్య అస్తి. గత ఇది ఏకదేశస్య అర్థవత్వం నాస్తి. ఏమేవ అత్ర ఊఢవాన్ ఇత్యత్ర ఊఢ ఇత్యస్య అర్థవత్వం నాస్తి, అతః తస్య గ్రహణం న భవతి. ప్ర ఊఢవాన్ ఇత్యత్ర వృద్ధిర్ నాస్తి ఇది సిద్ధాంతః. తత్ సాధయితుం అర్థవత్ గ్రహణే నానర్థకస్య గ్రహణం ఇది పరిభాషా ఆశ్రిత దీక్షితైః. కథం ఇది చేత ఉపస్థితస్య అర్థస్య. యదా శబ్దం శృణుమః తద్ శబ్దః అర్థః ఉపస్థితః భవతి. శబ్దం ప్రతి విశేషణత్వ సంభవే. సో వెన్ ఇట్ క్యాన్ క్వాలిఫై ద శబ్ద త్యాగ అయోగాత్. యు కెనాట్ సింప్లీ టేక్ అవే ద మీనింగ్ అండ్ జస్ట్ టేక్ ద శబ్ద. యు టేక్ ద శబ్ద అలాంగ్ విత్ ద మీనింగ్. ద శబ్ద మైట్ బి ప్రధాన అండ్ మీనింగ్ మైట్ బి గౌణ, బట్ ద మీనింగ్ ఇస్ స్టిల్ దేర్. వి డు నాట్ లీవ్ ద మీనింగ్ కంప్లీట్లీ. సహ శబ్ద తదర్థక సహ శబ్ద గృహ్యతే ఇత్యర్థః. తత్ర కిముచ్యతే సిద్ధాంతకౌముద్యాం? కథమియం పరిభాషా జ్ఞాయతే? అర్థవద్గ్రహణే నానర్థకస్య గ్రహణం ఇది పరిభాషాయాః కిం ప్రమాణం ఇది చేత, వ్రశ్చ ఇది సూత్రే రాజేః పృథక్ భ్రాజిగ్రహణాత్ జ్ఞాపకాత్. వ్రశ్చ భ్రశ్చ సృజమృజ యజరాజ భ్రాజఛశాం షః ఇది సూత్రం. సూత్రం పూర్ణం నా లిఖితం వా? నా లిఖితం. సృజ మృజ యజ రాజ భ్రాజ ఇది ధాతుద్వయం అస్తి. తయోః ధాత్వోః షకారః మూర్ధన్య షకారః ఆదేశ భవతి ఇత్యర్థ. తత్ర రాజేః పృథక్ భ్రాజిగ్రహణాత్ జ్ఞాపకాత్. రాజ్ ఇత్యస్తి. భ్రాజ్ ఇత్యత్రాపి రాజ్ ఇత్యస్తి. భ రాజ్. సో రాజ్ ఇస్ వన్ ధాతు. భ్రాజ్ ఇత్యత్రాపి రాజ్ ఇత్యస్తి. యది ఇయం పరిభాష నాస్తి, ఇఫ్ దిస్ పరిభాష డస్ నాట్ ఆపరేట్, దెన్ ఇఫ్ హి జస్ట్ సేస్ రాజ్ ఇత్యుక్తే ఏవ భ్రాజ్ ధాతోరపి షత్వం భవతి, బికాస్ భ్రాజ్ ఆల్సో కంటైన్స్ రాజ్ యాజ్ అ పార్ట్ ఆఫ్ ఇట్. కింటు రాజేహ పృథక్ భ్రాజి గ్రహణం క్రియతే పాణినినా తేన కిం జ్ఞాప్యతే? అర్థవత్ గ్రహణే నానర్థకస్య గ్రహణం. రాజ్ ధాతౌ రాజ్ ఇత్యస్య అర్థవత్వం అస్తి. భ్రాజ్ ఇత్యత్ర తు రాజ్ ఇత్యస్య అర్థవత్వం నాస్తి. ఇట్స్ ఓన్లీ భ్రాజ్ విచ్ ఇస్ మీనింగ్ఫుల్, నాట్ అ పార్ట్ ఆఫ్ ఇట్. దేర్ ఫోర్ అర్థవత్ గ్రహణే నానర్థకస్య గ్రహణం ఇది జ్ఞాయతే బై టేకింగ్ భ్రాజ్ సెపరేట్లీ. పాణిని కన్వేస్ దట్ యు హర్ టు టేక్ అ మీనింగ్ఫుల్ వర్డ్ అండ్ నాట్ అ మీనింగ్లెస్ పార్ట్ ఆఫ్ సంథింగ్ ఎల్స్. వ్రశ్చైతి సూత్రే వ్రాజేః పృథక్ భ్రాజిగ్రహణాత్ జ్ఞాపకాత్. తేన ఊఢశబ్దేన క్తాంతమేవ గృహ్యతే నతు క్తవత్వంతస్య ఏకదేశః. సో యు కెనాట్ టేక్ ద క్తవతు ప్రత్యయాంత దేర్. ప్రౌఢవాన్ ప్ర ఊఢవాన్ ఇతి స్థితే గుణ ఏవ భవతి నతు వృత్తిః ప్రౌఢవాన్. ఏతత్తు సిద్ధాంతకౌముద్యామస్తి. సీరదేవస్థాః ವ್ರಶ್ಚ ಇತಿ ಸೂತ್ರೆ ರಾಜೇ ಪೃಥಕ್ ಭಾಜಿಗ್ರಹಣಂ ಇಹ ಜ್ಞಾಪಕಂ ಇತಿ. ದಿಸ್ ಜ್ಞಾಪಕ ವಿಚ್ ದೀಕ್ಷಿತರ್ ಕೋಟ್ಸ್ ಇಸ್ ಫ್ರಮ್ ಸೀರದೇವ. ಸೀರದೇವ ಹಸ್ ರಿಟನ್ ಸಮ್ ವ್ಯಾಕರಣ ಗ್ರಂಥ, ಐ ಡೋಂಟ್ ರಿಮೆಂಬರ್ ವಿಚ್ ಒನ್, ಸಮ್ ವೃತ್ತಿ ಗ್ರಂಥ ಐ ಥಿಂಕ್. ಸೊ ದೇರ್ ಹಿ ಸೇಸ್ ದಟ್ ದಿಸ್ ಇಸ್ ಎ ಜ್ಞಾಪಕ ಟು ಸೇ ದಟ್ ದಿ ಪರಿಭಾಷಾ ಎಕ್ಸಿಸ್ಟ್. ನಾನು ಏತದ್ ಅಯುಕ್ತಂ, ಹಿ ಸೇಸ್ ದಿಸ್ ಜ್ಞಾಪಕ ಇಸ್ ನಾಟ್ ಕರೆಕ್ಟ್. ವಾಟ್ ಇಸ್ ಜ್ಞಾಪಕ? ಜ್ಞಾಪಕಂ ವ್ಯರ್ಥಂ ಸದ್ ಜ್ಞಾಪಕಂ ಭವತಿ. ದಟ್ ವಿಚ್ ಹ್ಯಾಸ್ ನೋ ಮೀನಿಂಗ್ ಅದರ್ವೈಸ್ ವಿಲ್ ಬಿ ಟ್ರೀಟೆಡ್ ಆಸ್ ಎ ಜ್ಞಾಪಕ. ನೌ ಇಫ್ ದಿಸ್ ಪರಿಭಾಷಾ ಡಸ್ ನಾಟ್ ಎಕ್ಸಿಸ್ಟ್, ಯದೀನ್ ಅರ್ಥವತ್ ಗ್ರಹಣೇ ನಾನಥ ಕಸ್ಯ ಗ್ರಹಣಂ ಇತಿ ಪರಿಭಾಷಾ ನಾಸ್ತಿ, ತರ್ಹಿ ರಾಜೇ ಪೃಥಕ್ ಭ್ರಾಜಿ ಗ್ರಹಣಂ ವ್ಯರ್ಥಂ. ಸೊ ಟೇಕಿಂಗ್ ಅ ಭ್ರಾಜ್ ಸೆಪರೇಟ್ಲಿ ಇಸ್ ನಾಟ್ ರಿಕ್ವೈರ್ಡ್, ಇಟ್ಸ್ ಎ ವೇಸ್ಟ್. ಬಿಕಾಸ್ ಜಸ್ಟ್ ಬೈ ಸೇಯಿಂಗ್ ರಾಜ್, ಪಾಣಿನಿ ಕುಡ್ ಹಾವ್, ಐ ಮೀನ್ ವಿ ಕುಡ್ ಹಾವ್ ಗಾಟ್ ಶತ್ವ ಈವನ್ ಫಾರ್ ಭ್ರಾಜ್. ಸೊ ವೈ ಸೇ ಭ್ರಾಜ್ ಸೆಪರೇಟ್ಲಿ? ಸೊ ಸೇಯಿಂಗ್ ಇಟ್ ಸೆಪರೇಟ್ಲಿ ಇಸ್ ವ್ಯರ್ಥ. ವ್ಯರ್ಥಂ ಸತ್ ಜ್ಞಾಪಯತಿ, ಕಿಂ ಜ್ಞಾಪಯತಿ? ಅರ್ಥವತ್ ಗ್ರಹಣೇ ನಾನರ್ಥಕಸ್ಯ ಗ್ರಹಣಂ. ಸೊ ಜ್ಞಾಪಿತಾಯಾಂ ಪರಿಭಾಷಾಯಾಂ, ಒನ್ಸ್ ವಿ ಹ್ಯಾವ್ ದಿಸ್ ಪರಿಭಾಷಾ, ವಿ ರಿಕ್ವೈರ್ ಭ್ರಾಜಿ ಗ್ರಹಣಂ ಸೆಪರೇಟ್ಲಿ, ಬಿಕಾಸ್ ಅದರ್ವೈಸ್ ಅನರ್ಥಕತ್ವಾ ತಸ್ಯ ಗ್ರಹಣಂ ನ ಸ್ಯಾತ್. ನಾನು ಏತದ್ ಅಯುಕ್ತಂ, ಸೇಸ್ ದಿಸ್ ಇಸ್ ರಾಂಗ್, ದ ಜ್ಞಾಪಕ ಇಸ್ ರಾಂಗ್. ಕಿಮರ್ಥಂ? ಫಣಾದಿನಾ ರಾಜಿನಾ ಸಾಹಚರ್ಯಾತ್ ತಥಾಭೂತಸ್ಯೈವ ಶತ್ವಾರ್ಥತಯಾ ಭ್ರಾಜಿಗ್ರಹಣಸ್ಯ ಉಪಕ್ಷೀಣತ್ವಾತ್. ಸೇಸ್ ದ ಭ್ರಾಜಿಗ್ರಹಣ ಹ್ಯಾಸ್ ಅ ಪರ್ಪಸ್, ಇಟ್ ಇಸ್ ನಾಟ್ ವ್ಯರ್ಥ. ಓನ್ಲಿ ಇಫ್ ಇಟ್ ಇಸ್ ವ್ಯರ್ಥ ವಿ ಕ್ಯಾನ್ ಟ್ರೀಟ್ ಇಟ್ ಅಸ್ ಅ ಜ್ಞಾಪಕ. ಸೇಸ್ ಇಟ್ ಇಸ್ ನಾಟ್ ವ್ಯರ್ಥ. ವೈ? ಭ್ರಾಜ್ ಇತಿ ಧಾತುದ್ವಯಂ ಅಸ್ತಿ. ಸೊ ದೇರ್ ಆರ್ ಟೂ ಧಾತುಸ್, ಏಕಂ ತು ಭ್ರಾಜೃ ದೀಪ್ತೌ. ಸಿದ್ಧಾಂತ ಕೌಮುದ್ಯಾಂ ಧಾತು ಸಂಖ್ಯಾ ಏಕಾಶೀತ್ಯುತ್ತರ ಏಕಶತಂ 181. ಸೊ ದೇರ್ ಇಸ್ ಒನ್ ಭ್ರಾಜ್ ವಿಚ್ ಇಸ್ ಭ್ರಾಜೃ ದೀಪ್ತೌ. ದೇರ್ ಇಸ್ ಒನ್ ಮೋರ್, ಟು ಭ್ರಾಜೃ ದೀಪ್ತೌ, ಮೀನಿಂಗ್ ಇಸ್ ದ ಸೇಮ್, ದೇರ್ ಇಸ್ ಟ್ವಿತ್ ಅಂಡ್ ಇಸ್ ಇಸ್ 823. ಸೊ ದೇರ್ ಆರ್ ಟೂ ಭ್ರಾಜೃ ದೀಪ್ತೌ. ನೌ ವಿಚ್ ಆಫ್ ದೀ ಶುಡ್ ಬಿ ಟೇಕನ್ ಇನ್ ಪೃಷ್ಠಭ್ರಜ ಇಸ್ ಎ ಕ್ವೆಶ್ಚನ್. ಪೃಷ್ಠಭ್ರಜ ಸೃಜ ಮೃಜ ಇತಿ ಸೂತ್ರೆ ಕಸ್ಯ ಭ್ರಾಜ ಧಾತೋ ಗ್ರಹಣಂ ಭವತಿ ಇತಿ ಪ್ರಶ್ನ. ತದಾ ಉಚ್ಯತೆ ಫಣಾದಿನಾ ರಾಜಿನಾ ಸಾಹಚರ್ಯಾತ್. ದೇರ್ ಇಸ್ ರಾಜೃ ದೀಪ್ತೌ, ದೇರ್ ಇಸ್ ಓನ್ಲಿ ಒನ್, ದ ರಾಜ ಧಾತು ಇಸ್ ಓನ್ಲಿ ಒನ್, ದ ನಂಬರ್ ಇಸ್ 822 ಅಂಡ್ ಇಟ್ ಇಸ್ ಅ ಫಣಾದಿ. ಫಣಾದಿ ಇಸ್ ಅನ್ ಅಂತರ್ಗಣ, ಯು ಹ್ಯಾವ್ ದ 10 ಮೈನ್ ಗಣಾಸ್, ವಾದಿ ಅದಾದಿ ಜಹೋತ್ಯಾದಿ ಎಕ್ಸೆಟ್ರಾ. So within those ganas we have what are called antar ganas, the sub classes within the dhatu. Now this raj belongs to a sub class called phanadi. Phanadina rajina sahacharyat tathabhutasyaiva shatvartataya. Now panini includes raj along with raj to indicate that the same kind, since raj is a phanadi, it is the phanadi raj dhatu which gets shatva. The Prajradeeptav, which is not a Phanadi, will not get Shatva. So to indicate that, Prajigrahanam Upakshinam, so that is the actual purpose of Prajigrahana. Okay, so it is purposeful. Even though we may say that Rajigrahanena Prajadhatavarapi Bhavati, Tathaukta Kim Bhavati, Ubhayohu Bhavati. Right? Atrapi Raja Ityasthi, Atrapi Raja Ityasthi. Ubhayohu Bhavati. Tatra ಅಸ್ಯೈವ ಭವೇತ್ ಟು ಭ್ರಾಜೃ ದೀಪ್ತೌ ಇತಿ ಫಣಾದೇರೇವ ಭವೇತ್ ಅನ್ಯಸ್ಯ ಭ್ರಾಜ ಧಾತೋಃ ನ ಭವೇತ್ ತದರ್ಥಂ ಇದಂ ಭ್ರಾಜಿ ಗ್ರಹಣಂ ಫಣಾದಿನಾ ರಾಜಿನಾ ಸಾಹಚರ್ಯಾತ್ ತಥಾಭೂತಸ್ಯೈವ ಶತ್ವಾರ್ಥತಯ ಭ್ರಾಜಿಗ್ರಹಣಸ್ಯ ಉಪಕ್ಷೀಣತ್ವಾತ್ ನಾಮ ಉಪಯುಕ್ತತ್ವಾತ್ ದ ಪರ್ಪಸ್ ಇಸ್ ದೇರ್ ಸೊ ಒನ್ಸ್ ಇಟ್ ಹ್ಯಾಸ್ ಸಮ್ ಪರ್ಪಸ್ ಇಟ್ ಇಸ್ ನಾಟ್ ವ್ಯರ್ಥ ಇಫ್ ಇಟ್ ಇಸ್ ನಾಟ್ ವ್ಯರ್ಥ ಇಟ್ ಕೆನಾಟ್ ಬಿ ಎ ಜ್ಞಾಪಕ ಇತಿ ಚೇತ್ ವಿಭ್ರಾಟ್ ವಿಭ್ರಾಟ್ ಇತಿ ರೂಪದ್ವಯಂ ಹಿ ಸಾಧ್ಯಂ ತಜ್ಜ ಪ್ರಶ್ಚಾದಿ ಸೂತ್ರೆ ರಾಜೃ ಇತಿ ಪಠಿತ್ವಾಪಿ ಸುಸಾಧಂ. ಸೊ ಹಿ ಸೇಸ್ ವೈ ಡು ವಿ ನೀಡ್ ಟು ಸೇ ದಟ್ ಶತ್ವ ಅಪ್ಲೈಸ್ ಓನ್ಲಿ ಫಾರ್ ಒನ್ ಭ್ರಾಜೃ ಅಂಡ್ ನಾಟ್ ಫಾರ್ ದ ಅದರ್ ಭ್ರಾಜೃ. ಯದಾ ಶತ್ವಂ ಭವತಿ ತದಾ ವಿಭ್ರಾಟ್ ಇತಿ ರೂಪಂ ಭವತಿ. ವಿಭ್ರಾಶ್ ಇತ್ಯಸ್ಯತೆ ತಸ್ಯ ಜಷ್ಟ್ವೇ ವಿಭ್ರಾಡ್ ತದಃ ವಿಭ್ರಾಟ್ ಇತಿ ಭವತಿ. ಯಸ್ಯ ಭ್ರಾಜ ಧಾತೋಃ ಜಷ್ಟ್ವಂ ಶತ್ವಂ ನಾಸ್ತಿ, ದಟ್ ವಿಚ್ ಇಸ್ ನಾಟ್ ಇನ್ಕ್ಲೂಡೆಡ್ ಇನ್ ವ್ರಷ್ಟಭ್ರಜಾದಿ ಸೂತ್ರ, ತತ್ರ ಶತ್ವಂ ನ ಭವತಿ ತದಾ चोक्कुत्वं भवति भ्राज् इत्यस्य चोक्कुः इत्यनेन कृत्वे विभ्राक् इति रूपद्वयं भवति ओके सो वि नीड् टु डिरैव् टु फार्म्स् फ्रम् द टु भ्राज् धातु एकस्य भ्राज् धातोः विभ्राट् इति रूपं भवेत् अन्यस्य तु विभ्राक् इति रूपद्वयं भवेत् विभ्राट् विभ्राक् इति रूपद्वयं हि साध्यम् तच्च पश्चादिसूत्रे राजृ इति पठित्वा अपि सुसाधम् So he says, if that was the purpose, that is, you need the shatva for one dhatu and not for the other, then there is no need to take up bhrajra separately. Okay? Srijam brija yata raja bhraja iti bhrajikrahanam na kartavyam. Kim kartavyam? Kevalam rajra iti patiniyam. Prashtya prashtya srijam brija yata rajra. एकस्य भ्राजते ऋकारस्य प्रागपि दातुं शक्यत्वात् सो हि सेस् राजृ इति कृते अत्रापि तु भ्राजृ इत्यत्रापि राजृ इत्यस्ति अतः तस्य ग्रहणं भवति तस्य शत्वं भवति अस्य का गतिः केवलं भ्राजृ इत्यस्य इति चेत् एकस्य भ्राजतेः ऋकारस्य प्रागपि दातुं शक्यत्वात् तत्र ऋभ्राज इति धातुपाठे पठितुं शक्यते इन्द धातुपाठ Itself, he can create a distinction between these two. Ekam tu rubhraja iti dhatu, aparam tu tubhrajru. Idanim rajru grahanena, kim bhavati? Tubhrajru itya seva grahanam bhavati, rubhraja itya seva grahanam na bhavati. Viprat viprak iti rupadvayam hi sathyam, tadja vrashjari sutre rajru iti patitvapi susadham. एकस्य भ्राजतेः ऋकारस्य प्रागपि दातुं शक्यत्वात् बिकास् द पोजिशन् आफ् एन् अनुबन्ध डस् नाट् मेक् ए डिफरेन्स् एस् लाङ्ग् एस् दट् अनुबन्ध इस् देर् ऋभ्राज इत्यत्रापि ऋकारः अनुबन्धत्वेन अस्ति सः रुदित् तेन अलम् ऋभ्राज इति कः अर्थः प्रथमे भ्राज धातौ इन् द फस्ट् वन् ऋकारानुबन्धः पूर्वमेव योज्यते सो यु पुट् द ऋकार फस्ट् एण्ड् मेक् इट् ऋभ्राज सो राजृ ग्रहणेन तस्य ग्रहणं नास्ति नौ बोत् प्राब्लम्स् आर् साल्व्ड् सो यु से व्रष्टप्रज सृजमृज यद् राजृ इति उच्यते तेन केवलस्य राजृधातोरपि भवति तुभ्राजृ इत्यस्यापि भवति वेर् अस्यूमिङ्ग् द परिभाषा डस् नाट् एक्सिस्ट् ओके बिकास् दिस् कण्टेस्ट् दट् द परिभाषा डस् नाट् एक्सिस्ट् वेर् अस्यूमिङ्ग् यद् परिभाषा डस् नाट् एक्सिस्ट् वृष्ट्यादिसूत्रे राजृ इति पठ्यते चेत् उभयोः भवति अयं धातुः ऋभ्राज इति धातुः तेन अस्य न भवति तेन ऋभ्राज धातोः विभ्राट् इति रूपं भवति तुभ्राजृ इत्यस्य विभ्राट् इति भवति सर्वं सुसम्पन्नम् एकस्य भ्राजते ऋकारस्य प्रागपि दातुं शक्यत्वात् ऋभ्राज इति अथवा आर् हि सेस् The Rukara Anubandha is not essential at all for the first Prajra Dhatu. Rukara Anubandha eva napekshate. Ekam tu purvam eva dhatum shakyate iti ekam samadhanam. Dvitiyam tu tasya dhatohu Rukara Anubandha eva navashyakaha. Phraja iti akara anubandhatvena eva patitum shakyate. It can as well be akaranta. The Rukara does not have a special purpose. Why? What is the purpose of Rukara in a dhatu? Rudit. यदि धातुः रुदित् भवति तेन किं प्रयोजनम् इति चेत् नाग्लोऽपि शास्त्रुदिताम् इति चङ्परेणौ ह्रस्वनिषेधः भवति धातु वेरेवर् अ धातु इस् रुदित् दट् इस् हेज़् ऋकार एज़् इट्स् अनुबन्ध इट् हेज़् अ सिङ्गल् पर्पस् द पर्पस् इस् टु प्रिवेण्ट् ह्रस्व वेन् फालोड् बै चङ् चङ्परेणौ ह्रस्वः निषिध्यते नाग्लोऽपि शासु रुदिताम् यदि रुदित् धातुः तर्हि ह्रस्वनिषेधः क्रियते नौ इन् भ्राजृ इफ् वि रिमूव् द ऋकार देन् वि केनाट् हाव् ह्रस्वनिषेध ह्रस्वनिषेधार्थं ऋकारानुबन्धः आवश्यकः इति चेत् न भ्राजभास इति विकल्पस्य वासनिकतया सो देर् इस् आल्रेडी अ सूत्र विच् गिव्स् अ विकल्प राजभास इति विकल्पस्य वासनिकतया ऋकारस्य आत्मनेपदमात्रफलकतायाः वक्ष्यमाणत्वेन तत्स्थाने अकारस्य सुपठत्वात् अग्रिमं सूत्रमस्ति नाग्लोऽपि शास्त्रुदिताम् इत्यनेन ह्रस्वः निषिध्यते अग्रिमं सूत्रमस्ति भ्राजभास इत्यादि तेन किं भवति ह्रस्वः विकल्पेन उच्यते. देयर इज एन ऑप्शनल ह्रस्व वेर द धातु भ्राज इज स्पेसिफिकली मेंशन्ड. देयरफॉर भ्राज धातु ह्रस्व निषेधार्थं ऋतित्वं नापेक्षते. ऋकार एज एन अनुबंध इज नॉट रिक्वायर्ड फॉर ह्रस्व निषेध बिकॉज that dhatu is included in the list of Vrajabhasa and it will get an optional hraswa. Vrajabhasa iti vikalpasya vasanikataya rukarasya atmane pada matra phalakatayaha vakshamanatvena. The rukara in Vrajra will only be useful for anudatta ngita atmane padam. Yatra anudatta swaraha it samyakaha bhavati tatra dhatoha atmane padam bhavati. Atah rukarasya आत्मने पदमात्र फलकतायाः वक्ष्यमानत्वेन. सो दर्कार सर्व्स ओनली टू ब्रिंग इन आत्मने पद. तत्स्थाने अकारस्य सुपठत्वात् विच कैन आल्सो बी डन बाय सेइंग राज. राज इत्यत्र यदि अकारः अनुदात्तः तदापि अनुदात्तगिन्त आत्मने पदम् इति अर्थने पदम् सिद्ध्यति. अतः टू डिफरेंशिएट बिटवीन द टू भ्राज धातुस् Panini does not need to include Vraja in Vrashchadi Sutra. What he can do is, one is like that, he can say Rajra in Vrashchadi Sutra. In the Dhatu Patha, one Dhatu is to Vrajra, the other one can either be Rupraja or plain Vraja without the Rukara at all, which will remove the confusion. Okay. So, Tathasati, Rupadvayam Sadhayitum Shakyate. Into Panini, this is easier. Easier as in Lakhu, because he does not need to mention Bharaja separately. In Vyakarana, we always have great value for Laghava. Alpaksharam is the first characteristic of a sutra. As short as possible, without wasting a single syllable. Ardhamatra Laghavena Putrotsavam Manyante Vayakarana. So, if there can be a shortening of half a matra, then it will be as delightful to a grammarian as if a son is born, as if there is a birth of a son. So that is, it just indicates the importance which Vyakaranas attach to Laghava. So Panini is telling two letters in addition. Raja iti Guruna Satyamanamasti. He could have as well served, achieved his purpose by just saying Rajra and a slight modification in the Dhatu Patha. Instead of doing that, Panini gives Vrajra separately. That definitely indicates the presence of this paribhasha. That is, Arthagrahane Nanathakasya Grahanam iti paribhasha anena gyapyate. Kim jatatra, Vrajabhasa iti vikalpasya vachanikataya, rikarasya atmane padamatra phalakataya vakshyamanatvena, tatsthane akarasya supatatvacha. अनुदात्तमिदात्मने पदम् इति तत् अकारे अनुदात्तत्वेन पठिते अपि आत्मने पदत्वं सिद्ध्यति. तदर्थं ऋकारः नापेक्ष्यते. अतः एकः भ्राजधातुः अपरः तु भ्राजृ इति धातुः. तत्र राजृ ग्रहणेन तु भ्राजृ इत्यस्यापि ग्रहणं भवति. तथा नोक्तम् इत्यनेन ज्ञायते अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम्. तस्मात् क्षीरदेवोक्तं ज्ञापकमपि सम्यगेव. तत् ज्ञापकमपि साधु. The contention was that the Jnapaka was not good. The Paribhasha is not being contested. The Paribhasha exists. So, is this a Jnapaka or not, is what was the Puru Paksha. So, he says, Siradeva Uktam Jnapakam Api Samyageva. Atayeva Dikshitahi Kaumudyameva Dattam. Tatra Paribhasha. Okay. Any questions so far? Then the same thing, Pradu, Dho, Teshai, Sheshu, Ante, Eshya, Ityasti, Tatra, Praishyaha, Ity Udaharanam. Esha Sahacharyat, Eshyopi, Anavyayam, Grahyate. So, Puram, Esha, Ityasti, Praishyaha, Ityasti. So, Tat Sahacharyat, Anavyayam, Avyabhinnasyeva, Esha, Shabdasya, Grahanam. Tena, Nyantat, Ishehe, Kthol, Yapi. Pararupameva natu vrittihi. Pra eshya, yatha agatya ityatra lyap bhavati, tatha pra upasarga purvakat एष इति इषधातोः ण्यन्तः तस्य त्वा तस्य ल्यबादेशे पररूपमेव भवति बिकास् इट् इस् अन् अव्यय एष इति ल्यबन्ताव्ययम् अत्र अनव्ययमेव दृश्यते इति उक्तत्वात् अव्ययस्य वृद्धि अव्यये परे वृद्धिः न भवति पररूपमेव भवति एङि पररूपम् इति अवर्णान्तादुपसर्गान् एङादौ धातौ परे पररूपं भवति प्रेष्यगतः यत्र अनव्ययं तत्र प्रैष्यः इति भवति अग्रिमं वार्तिकमस्ति प्रवत्सतर कम्बल वसन दशारणानां ऋणे एतेषां प्र ऋणशब्दे परे वृद्धिर्भवति प्रऋणं प्रारणं वत्सतर ऋणं वत्सतरारणम् इत्यादि प्रवत्सतर इति अत्र कानापानुसारिणः वत्सरशब्दमपि पठित्वा वत्सने देयम् ऋणं वत्सरारणम् इति उदाहरन्ति अपरे तु वत्सशब्दमपि पठन्ति तत्सर्वं भाष्यादि विरुद्धम् प्रवत्सतर इत्यस्ति केचन अत्र वत्सर इति पठन्ति वत्सरं नाम संवत्सरः एकं वर्षं सो वत्सरे देयम् ऋणं वत्सर ऋणं यत् एकस्मिन् वर्षे प्रत्यर्पणीयं तत् वत्सदारणम् इति केचन उदाहरन्ति अपरे तु वत्सशब्दमपि पठन्ति प्रवत्स वत्सतर इति वत्सऋणं वत्सऋणं वत्सारणम् इति पठन्ति सो वत्स वत्सं क्रेतुं यद् ऋणं स्वीक्रियते तद् वत्सारणम् इति तत्सर्वं भाष्यादि विरुद्धम् All that is not in the Bhashya, only the word Vatsatara. Vatsataraha nama, it is a young bull or a heifer, that which has just got out of its Vatsa. Vatsaha is a calf. The calf which is drinking milk from the mother is Vatsa. Vatsatara is that which has been weaned, that is that which no longer requires the mother's milk. Such a calf, it is not yet a fully grown bull, something like a teenager in between. So that is called Vatsatara. तत् क्रेतुं यदृणं तद् वत्सतरारणम् अग्रिमं सूत्रमस्ति अन्तादिवच्च योऽयमेकादेशः सः पूर्वस्य अन्तवद् परस्य आदिवत् स्यात् सो इफ् यु आर् डूयिङ्ग् एन् एकादेश दट् इस् अ लेट् सिङ्गल् आदेश फार् द टू लेटर्स् पूर्ववर्णस्य परवर्णस्य उभयोः स्थाने यः एकादेशः क्रियते सः पूर्वस्य अन्तवत् परस्य आदिवत् स्यात् It can either be treated as the ending of the Purvapada or the beginning of the Parapada. Iha ekah purvaparayor iti anuvartate. So purva sutrat ekah purvaparayoho iti anuvartate. Yatha sankhyanta. That is purvaparayoho. Purvasya antaha parasya adihi. Iti yatha sankhyanta ityabhipraya. Pretyaha purvasya antavat parasya adivatsyat. स्थानिवत् सूत्रेणैव गतार्थमिदं सूत्रम् सो हि सेस् सो दिस् केन् अस् वेल् बि डन् थ्रू स्थानिवदादेशः सिन्स् इट् इस् स्टिल् एन् आदेश स्थानिवदादेशः स्थानिवत् पूर्वः अपि स्थानि परः अपि स्थानि अतः पूर्वस्यापि भागः भवितुमर्हति परस्यापि इति शक्यते स्थानिवत् सूत्रेणैव गतार्थमिदं सूत्रम् न च अल्विध्यर्थमिति भ्रमितव्यम् वि केनाट् आर्ग्यू दट् दिस् इस् फार् अल्विधि That is, if there is a single letter in the sthani of the adesha which is being taken, tadarthamidam iti na bhramitavyam, asyavi alvidhau anishtatvat. That is, if it is an alvidhi, if it is depending on the single letter which was the sthani, then we do not have antadivaccha. We have it only when we are considering the entire sthani. पूर्णतयाग्रह्यते तस्य अन्तवत् भवति अथवा आदिवत् भवति केवलं तस्य स्थानिनः तस्य वर्णस्य स्थाने अयम् आदेशः इत्युक्ते वर्णरूपः न भवति इट् केनाट् बि अप्लैड् इन् अल्विधि अन्यथा अयजे इन्द्रम् इत्यत्र सवर्णदीर्घापत्तेः अयज इ इन्द्रम् इत्यस्ति तत्र आदौ गुणः क्रियते अयजे इन्द्रम् गुणः एकादेशः एकारः परस्य आदिवत् अर्थात् परः नाम इकारः अयज इ इकारवत् भवति इति यदि उच्यते इफ् यु से दट् दिस् विल् आक्ट् लैक् इकार देन् इफ् यु आर् ट्रीटिङ्ग् दिस् एकार एज़् इकार अत्र सवर्णदीर्घः स्यात् देर् शुड् बि सवर्णदीर्घ रैट् विच् इस् नाट् हेपन् बिकास् इट् इस् अल्विधि सवर्णदीर्घः अल्विधिः अल्विधौ यथा स्थानिवद्भावः नास्ति तथा अन्तादिवद्भावः अपि नास्ति अतः इदं सूत्रं पृथक् न कर्तव्यम् स्थानिवदादेशो अनल्विधौ इत्यनेनैव एतानि कार्याणि सिद्ध्यन्ति केवलं स्पष्टार्थम् इट् इस् जस्ट् फार् क्लारिटि अयज इ इन्द्रम् ಆದ್ಗುಣಃ ಇತ್ಯನೇನ ಗುಣೇ ಕೃತೆ ಅಯತೇ ಇಂದ್ರಂ ಇತ್ಯಸ್ತಿ. ಸೊ ಏಕಾದೇಶಸ್ಯ ಗುಣಸ್ಯ ಅಂತಾದಿವದ್ಭಾವೇನ ಪರಸ್ಯ ಆದಿವದ್ಭಾವೇನ ಇಕಾರ ರೂಪತ್ವೇ ಸತಿ ಇಫ್ ವಿ ಟ್ರೀಟ್ ಇಟ್ ಅಸ್ ಇಕಾರ ಸವರ್ಣ ದೀರ್ಘ ಸ್ಯಾತ್ ತಥಾಚ ವಾರ್ತಿಕಂ ನವಾ ಅರ್ಥಾತ್ ನೋವತಿ ಕಿಮರ್ಥಂ ಅತಾದ್ರೂಪ್ಯ ಅತಿದೇಶಾತ್ ಅತ್ರ ಅತಿದೇಶ ತಾದ್ರೂಪ್ಯ ನ ಇಟ್ ವಿಲ್ ನಾಟ್ ಕನ್ವರ್ಟ್ ಏಕಾರ ಇನ್ ಟು ಇಕಾರ ರೂಪ ಓಕೆ ಇಟ್ ವಿಲ್ ಜಸ್ಟ್ ಬಿಹೇವ್ ಆಸ್ ಇಫ್ ಇಟ್ ಇಸ್ ಇಕಾರಾಂತ ಆರ್ ಇಕಾರಾದಿ ಆರ್ ಅಕಾರ ಅಯಜ ಇ ಅಕಾರಾಂತ ಓಕೆ ನವಾ ಅತಾದ್ರೂಪ್ಯ ಅತಿದೇಶಾತ್. ಸೊ ನೌ ಲೆಟ್ಸ್ ಜಸ್ಟ್ ಸಿ ವಾಟ್ ಇಸ್ ದ ಕ್ರಮ ಇನ್ ದ ಕೌಮುದಿ. So he first starts with upasarga dhruti dhatav, right? Avarnanta upasarga drakaradav dhatav pare vruthir ekareshah syat. Uparchati prachati pra ruchati evam uparuchati tishtyate upasarga dhruti dhatav ityanena vruthihi gunam badhitva. It should actually be guna. So overruling guna we have vruthi. Tata kim vadati antadivaccha yoyam ekadeshah vruthihi atra ekadeshah ಉಪರುಚ್ಛತಿ ಇತಿಸ್ತದೆ ಆರ್ ಇತಿ ವೃತ್ತಿ ರಪರಹ ಭವತಿ ವರಣರಪರಹ ಇತಿ ಅಂತಾದಿವಚ್ಚ ಯೋಯಮೇಕಾದೇಶಃ ಸಹ ಪೂರ್ವಸ್ಯ ಅಂತವತ್ ಪರಸ್ಯ ಆದಿವತ್ ಸ್ಯಾತ್ ಇತಿ ರೇಫಸ್ಯ ಪದಾಂತತ್ವೇ ನೌ ಅತ್ರ ಆರ್ ಇತಿ ಏಕಾದೇಶಃ ಪೂರ್ವಸ್ಯ ಅಂತವತ್ ಉಪ ಇತ್ಯಸ್ಯ ಅಂತವತ್ ಭವತಿ ಅರ್ಥಾತ್ ಉಪಾರ್ ಇತ್ಯೇವ ಪದಂ ಇತಿ ರೇಫಸ್ಯ ಪದಾಂತತ್ವೇ ನೌ ದ ರೇಫ ಇಸ್ ಅಟ್ ದ ಎಂಡ್ ಆಫ್ ಅ ಪದ ಖರಸಾನಯೋರ್ ವಿಸರ್ಜನೀಯಃ ಇತ್ಯನೇನ ತಸ್ಯ ರೇಫಸ್ಯ ಖರಿ ಅವಸಾನೇ ಚ ಪರೇ ರೇಫಸ್ಯ ವಿಸರ್ಜನೀಯಃ ಸ್ಯಾತ್ ಪದಾಂತೇ. ಅತ್ರ ಚಕಾರಃ ಅಸ್ತಿ ಖರ್ ವರ್ಣಃ ಸೊ ತಸ್ಮಿನ್ ಪರೇ ಪದಾಂತ ರೇಫಸ್ಯ ವಿಸರ್ಗಃ ಭವತಿ ಇತಿ ವಿಸರ್ಗೇ ಪ್ರಾಪ್ತೇ. ಸೊ ವೆನ್ ದೇರ್ ಇಸ್ ಅ ಪ್ರಸಂಗ ಆಫ್ ಡೂಯಿಂಗ್ ವಿಸರ್ಗ ಅಂತವದ್ಭಾವೇನ ಪದಾಂತ ರೇಫಸ್ಯ ನ ವಿಸರ್ಗಃ. So it says, yatra antavadbhavena refasya padantatvam, tatra visargaha na bhavati. Vai, ubhayatharkshu, kattari charshirevatayoho, ityadi nirdesha. There are Panini sutras. Ubhayatharkshu, ityasti, tatra ubhayatharkshu, iti paninna kritam, gunadesha kritaha, tatra ar, iti ekadeshaha, tasya purvantavadbhave, upar, ubhayathar, iti padam, ಪದಾಂತೇ ರೇಫಃ ತಸ್ಯ ವಿಸರ್ಗಃ ಸ್ಯಾತ್ ಕಿಂತು ಪಾಣಿನಿನ ವಿಸರ್ಗಃ ನ ಕೃತಃ. ಏವಮೇವ ಚ ಋಷಿದೇವತಯೋಃ ಇತ್ಯತ್ರಾಪಿ ಚರ್ ಇತಿ ಯದಿ ಪದಂ ತರ್ಹಿ ಪದಾಂತರೇಫಸ್ಯ ವಿಸರ್ಗಃ ನ ಕೃತಃ. ಅತಃ ಅಂತವದ್ಭಾವೇನ ಪದಾಂತರೇಫಸ್ಯ ನ ವಿಸರ್ಗಃ. ಯತ್ರ ಅಂತವದ್ಭಾವೇನ ರೇಫಸ್ಯ ಪದಾಂತತ್ವಂ ಭವತಿ ತತ್ರ ಖರವಸಾನಯೋ ವಿಸರ್ಜನೀಯಃ ಇತಿ ನ ಭವತಿ. ಸೊ ದಿಸ್ ಇಸ್ ದ ಕ್ರಮ ಇನ್ ದ ಸಿದ್ಧಾಂತಕೌಮುದಿ. ನ ವಿಸರ್ಗ ಇತಿ ದ ಪ್ರೌಢ ಮನೋರಮಾ ಟೇಕ್ಸ್ ದ ಪ್ರತೀಕ ಫ್ರಮ್ ಹಿಯರ್ ಅಂತವದ್ಭಾವೇನ ಪದಾಂತರೇಫಸ್ಯ ನ ವಿಸರ್ಗ. ನ ವಿಸರ್ಗ ಇತಿ ಏತಚ್ಚ ಸುಖಾರ್ಥ ಇತ್ಯಾದಾವಪಿ ತುಲ್ಯಂ ಸುಖೇನ ಋತಃ ಸುಖ ಋತ ಇತಿ ಸ್ಥಿತೆ ಋತೇಶ ತೃತೀಯ ಸಮಾಸೆ ಇತ್ಯನೇನ ವೃದ್ಧಿರ್ಭವತಿ ಸುಖಾರ್ಥ ಇತಿ ತತ್ರ ಅತಿ ತುಲ್ಯಂ. ಸೊ ಎವ್ರಿವೇರ್ ವೇರ್ ಯು ಆರ್ ಡೂಯಿಂಗ್ ವೃದ್ಧಿ ಅಂಡ್ ದೇರ್ ಇಸ್ ಆರ್ ಸೊ ರೇಫ ಇಸ್ ಅಟ್ ದ ಎಂಡ್ ಆಫ್ ಅ ಪದ ತತ್ರ ವಿಸರ್ಗ ನ ಭವತಿ. ಅತ್ರ ಚ ಕಾರ್ಯಕಾಲ ಪಕ್ಷೆ ಬಹಿರಂಗತ್ವಾದ್ ಅಸಿದ್ಧಮಪಿ ಬೋಧ್ಯಂ. ದೇರ್ ಇಸ್ ಆಲ್ಸೋ ಅನದರ್ ವೇ ವಿ ಕ್ಯಾನ್ ಪ್ರಿವೆಂಟ್ ದ ವಿಸರ್ಗ ಹಿಯರ್ ಬಹಿರಂಗತ್ವಾದ್ ದ ವೃದ್ಧಿ ಇಸ್ ಬಹಿರಂಗ ಸುಖ ಋತ ಓಕೆ ನೌ ವೃದ್ಧಿ ರಿಕ್ವೈರ್ಸ್ ಸುಖ ಶಬ್ದ ಅಂಡ್ ಋತ ಶಬ್ದ ಅಂಡ್ ತೃತೀಯ ಸಮಾಸ ಓಕೆ ಬಹ್ವಪೇಕ್ಷತ್ವ ತೃತಿ ಬಹಿರಂಗ ವೆರ್ ಅಸ್ ವಿಸರ್ಜನೀಯ ಜಸ್ಟ್ ರಿಕ್ವೈರ್ಸ್ ರೇಫ ಅಂತ ಪದಾಂತ ದೇರ್ ಫೋರ್ ಇಟ್ ಇಸ್ ಅಂತರಂಗ. ಸೊ ಬಹಿರಂಗತ್ವ ಅಂತರಂಗೇ ಕಾರ್ಯ ಕರ್ತವ್ಯ ಅರ್ಥಾತ್ ವಿಸರ್ಗೇ ಕರ್ತವ್ಯ ಬಹಿರಂಗಸ್ಯ ವೃತ್ತೇ ಅಸಿದ್ಧತ್ವ ಕಾರ್ಯಕಾಲ ಪಕ್ಷೆ ಬಿಕಾಸ್ ಇಟ್ ಇಸ್ ಇನ್ ತ್ರಿಪಾದಿ ಕಾರ್ಯಕಾಲ ಪಕ್ಷೆ ತ್ರಿಪಾದ್ಯಾಂ ಪರಿಭಾಷಾ ಪ್ರವರ್ತಂತೆ. We have seen this again. Please remember, there are two views. Yathodesha Paksha and Kadikala Paksha. Yathodesha Paksha, Tripadhyam, Samyanam, Paribhashanam, Pravrutthihi na bhavati. Karyakala Paksha, Tripadhyam api, Samyanam, Paribhashasya, Pravrutthihi bhavati. Ata Karyakala Paksha, Bahirangatvad asiddham api bodhyam. Vrutti Bahirangatvad asiddha, tasmad vidargaha na bhavati, ityapi bodhyam. నచ నాజానంతర్యే ఇది నిషేధః. నాజానంతర్యే బహిష్ఠ ప్రకృతిః ఇది పరిభాష అస్తి, అసిద్ధం బహిరంగరంగే ఇది పరిభాషాయాః అపవాదభూత. సో దిస్ ఇస్ అన్ ఎక్సెప్షన్ టు ద అసిద్ధం బహిరంగం అంతరంగే. ఇట్ సేస్ అజానంతర్యే అచోహ ఆనంతర్యే, సో వేర్ ద కార్య వన్ ఆఫ్ ద కార్య దట్ ఇస్ అంతరంగ ఆర్ బహిరంగ డిపెండ్స్ ఆన్ అచ్ ఆనంతర్య, ఆనంతర్య ఆఫ్ ఓవెల్స్. ఆనంతర్య ఇస్ బీయింగ్ టుగెదర్, బీయింగ్ నెక్స్ట్ టు ఈచ్ అదర్ ఆఫ్ అచ్ ఓవెల్స్. ఫర్ ఎగ్జాంపుల్ ఇకో ఎనచి, ఇట్ డిపెండ్స్ ఆన్ ఇక్ బీయింగ్ రైట్ నెక్స్ట్ టు అచ్, సో ఇట్ ఇస్ అజానంతర్య కార్య. సిమిలర్లీ వృద్ధి, ఇట్ డిపెండ్స్ ఆన్ అకార బీయింగ్ ఫాలోడ్ బై రుకార, అజానంతర్య. సో నాజానంతర్యే బహిష్ఠ ప్రకృతి ఇది పరిభాష అస్తి, అజానంతర్యే కార్యే కర్తవ్యే, బహిరంగస్య బహిరంగత్వం నాస్తి ఇత్యర్థః. సో బహిరంగ పరిభాష డస్ నాట్ అప్లై. ఇతే యత్ర అంతరంగే బహిరంగే వా అచోహ ఆనంతర్యం తత్ర ఇతి హరతత్త పక్షే తత్ ప్రాప్తావపి. సో ఇన్ ఇంటర్ప్రెటింగ్ దిస్ పరిభాష నాజానంతర్యే బహిష్ఠ ప్రకృతి, దేర్ ఇస్ అ డిఫరెన్స్. హరదత్త సేస్ యత్ర అంతరంగే బహిరంగే వా అచోహ ఆనంతర్యం, when either the antaranga or the bahiranga karya depends on ajanantarya, tatra bahirangasya bahirangatvam na bhavati iti haridattah. Tat praptavapi yatra paschat pravartamane ajanantaryam iti kayatamate nishedha praptehe. But kayata says paschat pravartamane, the karya which happens later, తత్ర అజానంతర్యం యద్యస్తి తర్హి బహిరంగత్వస్య నిషేధః. సో హియర్ వి ఆర్ డూయింగ్ వృద్ధి, వృద్ధి ఇస్ బహిరంగ అండ్ ఇట్ ఇస్ ఆల్సో అజానంతర్య, బట్ ఇట్ అప్లైస్ ఫస్ట్, దెన్ వి ఆర్ ట్రైంగ్ టు డూ విసర్గ విచ్ ఇస్ నాట్ అజానంతర్య, ఇట్ ఇస్ అంతరంగ అండ్ నాట్ అజానంతర్య. సో కయటమతే కిం పశ్చాత్ ప్రవర్తమానే అజానంతర్యం యద్యస్తి, ఇఫ్ ద లాటర్ కార్య డిపెండ్స్ ఆన్ అజానంతర్య తత్రైవ బహిరంగత్వస్య నిషేధః. అత్ర తు పూర్వ కార్యస్యైవ అజానంతర్యం అస్తి, బహ్వపేక్షత్వేన బహిరంగాయాం వృద్ధౌ అజానంతర్య సత్వేపి. ఈవెన్ దో ద వృద్ధి విచ్ ఇస్ బహిరంగ హాజ్ అజానంతర్య, పశ్చాత్ ప్రవర్తమానే అర్థాత్ కర్వసానయోర్ విసర్జనీయః ఇతి కార్యే తద్ అభావాత్, దేర్ ఇస్ నో అజానంతర్య. దేర్ఫోర్ కయ్యటమతే నాజానంతర్యే బహిష్ట ప్రకృతి ఇది నిషేధ న ప్రాప్నోతి. అసిద్ధం బహిరంగం అంతరంగే ఇత్యనేన వృద్ధే అసిద్ధత్వాత్ విసర్గ న భవతి. సో దేర్ ఆర్ టూ వేస్ ఆఫ్ ప్రివెంటింగ్ ద విసర్గ దేర్. వన్ ఇస్ అ జనరల్ రూల్ బై పాణినియన్ నిర్దేశ, బై టేకింగ్ పాణినియన్ ప్రయోగా సజాజ్ ఉభయసర్క్షు అండ్ కర్తవితర్షి దేవతయో వి కెన్ డిరైవ్ ద రూల్ దట్ అంతవద్భావేన పదాంతరేఫస్య విసర్గ న భవతి. అథవా అసిద్ధం బహిరంగం అంతరంగే ఇత్యనేన బహిరంగే కర్తవ్యే క్షమ్యతాం, అంతరంగే కర్తవ్యే బహిరంగస్య అసిద్ధత్వం ఇత్యపి వక్తుం శక్యతే. ఎనీ క్వశ్చన్స్? ఉపసర్గేణైవ ధాతోరాక్షేపే సిద్ధే ధాతౌ ఇతి యోగ విభాగేన పునర్వృద్ధి విధానార్థం. కుత్ర? సో హి సేస్ ఉపసర్గాద్ రతి ధాతౌ, రైట్? సో దట్ ఇస్ వేర్ వి ఆర్ స్టార్టింగ్. ఇఫ్ యు లుక్ ఎట్ దిస్, సో వి హావ్ ఉపసర్గాద్ రతి ధాతౌ. సో తత్ర ఉచ్యతే ఉపసర్గేణైవ ధాతోః ఆక్షేపే సిద్ధే. ఉపసర్గాధృతి ఇది ఉక్తే, ఉపసర్గ ఇత్యుక్తే ధాతుః భవతి ఇత్యేవ కిల. అస్ లోన్ అస్ వి సే ఉపసర్గ, ఇట్ మీన్స్ దట్ కంపల్సరీలీ దేర్ ఇస్ అ ధాతు. సో వై సే పునః ధాతౌ ఉపసర్గాధృతి ఇత్యేవ సిద్ధే, ఋకారాదౌ ధాతౌ ఇతి సిద్ధ్యతి. ఉపసర్గేణైవ ధాతోః ఆక్షేపే సిద్ధే ధాతౌ ఇతి యోగ విభాగేన పునః వృద్ధి విధానార్థం. పునః వృద్ధి విధీయతే, వృద్ధి ఇస్ బీయింగ్ ఎంఫసైజ్డ్ ట్వైస్ బై ద ధాతు గ్రహణ. కిమర్థం ఇత్యపి ఉచ్యతే ఉపసర్గేణేతి యత్ క్రియాయుక్తాః ప్రాదయః తం ప్రత్యేవ గత్యుపసర్గ సంజ్ఞాః. ఉపసర్గ సంజ్ఞ applies only when the pradis, pra, para, etc. are associated with a kriya. So only when there is a dhatu, you can have upasarga samya. Therefore, as soon as we say upasarga, it means that there is a dhatu there. So upasargena iva dhato rakshepe siddhe dhato iti yoga vibhagena punarvruthi vidhanartham. Tena rityakaha iti pakshikopi prakritibhavaha atrana bhavati. Ritipare akaha prakvat ityasti saptarshayaha saptarushayaha ityasthite. Ritipare rikarada upare akaha ak varanaha prakvat nama prakrityasyuhu. There is an optional prakritibhava saptarushayaha athama saptarshayaha. Atrapi upa ruchati iti pakshikopi prakriti bhavaha na bhavati, because there is emphasis of ruti. Upasarga ruti ityukte eva ruti bhavati, punaha dhatau ityuktva punaha vrithau krutaya ruthireva bhavati prakriti bhavaha na bhavati iti jnayate. The next sutra, vasupyapi shalehe. Kortaha avaranta upasargat rikaradav subdhatav pare. Subdhatu is a dhatu which is derived from sub, we also call it as a namadhatu. Okay, dhatus which are derived from namapadas by adding some sanadi pratyas like yat, char, kamit, etc. Avaranta upasargat rikaradav subdhatav pare vriddhi ekadesha vasyat vikalpena vriddhir bhavati. Prarshabhiyati prarshabhiyati pra rishabhiyati. Rishabhaha iva acharati iti kyach pratyaha, kyachva kyangva upamana dachare ityanena kyach pratyaha bhavati ayam subdhatuhu rishabhiyati rishabha iti namapada nishpannaha tatra vikalpena vruthihi prarshabhiyati 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 iti sharosi iti dvitva nishethaha prarsha iti sthite shakarasya Achoraha abhyam dve, atahpara abhyam, refa hakara abhyam, parasya, yaraha dvevastaha, ityajyate, tat bhavati va, iti prashnaha. Achoraha abhyam dve, ityanena, dvittvam bhavati va, iti jyate, sharochi, iti dvittvanishethaha. Sharochi pare, sharvarnasya achipare, dvittna dve bhavataha, sharaha, there is a typing error, sharo achipare, sharvarnaha, sharshasa, ete, achipare, Natve bhavataha. If there is an ach following which is akara, there is no dvitva. Okay, so it is prashabhiyati or prashabhiyati. Adrimam sutra masti engi pararupam. So all the sutras later have only minor points. There is nothing very detailed about it. So engi pararupam. Avaranta upasargat engadau dhatau pare. So when there is upasarga ending with akara is followed by an engadi dhatu, pararupam ekadesha syat. Pra ejate, prejate, upa oshati, uposhati. Iti udaharana. Prejate, tatra prejate iti. Ejrudeeptau, prejate, ejate, yatra, ejrudeeptau, prakarshena deepyate, ityarthaha. Kampanarthastu parasmaipadi. It says, kampane api, ejru kampane ityapi dhatuhu asti. Kintu saha parasmaipadi. Ejate iti na bhavati. Ejate kampate iti tu prajamyakshanam pramadikameva. So the intakriya kaumari, the ejate nama kampate ityasaha dattaha kampanarthaha parasmaipadi. Ataha prejate iti nabhavati, prejati ityeva bhavati, prejate iti atmevadantu ejradeeptau iti dhatoho nishpannam. Eng yeng ityeva siddhe paragrahanam uttanartham. Engi pararupam iti na vaktavyam. Engi eng iti vaktum shakyate. Avarnanta upasargat eng adau dhatau pare eng ekadesha bhavati. Arthat ekarasya ekaraha bhavati. Ekare pare ekaraha bhavati. Okare pare okaraha. Pararupam iti kimartham vaktavyam. Laghavam asti kila. Engi eng tavadeva. Engi eng. Engi pare avarnanta upasargat iti anuvrittihi eng varnaha adesha bhavati. Ityeva siddhehe. Paragrahanam uttaratham. So in the further sutras, like you have navyaktanukaranasya taitaha ityadi, tatra pararupam iti apekshyate, atra iva krutam, uttaratham. So in latter sutras, anyway we require pararupa. So that has been started here itself. ರೂಪಗ್ರಹಣಂ ತು ಚಿಂತ ಪ್ರಯೋಜನಂ ಏಂಗಿ ಪರಃ ಇತ್ಯೇವ ಸಿದ್ಧೇಹ. ಲೈಕ್ ವಿ ಹ್ಯಾವ್ ಅಮಿಪೂರ್ವಃ ಇತ್ಯಸ್ಯ ಅಗ್ರೆ ಸೂತ್ರಂ. ಪೂರ್ವಃ ನಾಮ ಪೂರ್ವವರ್ಣಃ, ಪೂರ್ವರೂಪಂ ಇತ್ಯರ್ಥಃ. ಏವಮೇವ ಅತ್ರಾಪಿ ಏಂಗಿ ಪರಃ ಇತಿ ವಕ್ತುಂ ಶಕ್ಯಮಾಸೀತ್. ಪರರೂಪಂ ಇತಿ ತು ಚಿಂತ್ಯ ಪ್ರಯೋಜನಂ, ಪ್ರಯೋಜನಂ ಚಿಂತ್ಯಂ, ಇಟ್ ಹ್ಯಾಸ್ ಟು ಬಿ ಥಾಟ್, ಮೀನ್ಸ್ ಹಿ ಫೀಲ್ಸ್ ದಟ್ ದೇರ್ ಇಸ್ ನೋ ಪ್ರಯೋಜನ. ಪಾಣಿನಿ ಕುಡ್ ಆಸ್ ವೆಲ್ ಹ್ಯಾವ್ ಸೆಡ್ ಏಂಗಿ ಪರಃ, ನೀಡ್ ನಾಟ್ ಹ್ಯಾವ್ ಸೆಡ್ ಪರರೂಪಂ ಯಥಾ ಅಮಿಪೂರ್ವ ಇತಿ. ಏವೇ ಚಾನಿಯೋಗೆ ಇತಿ ಅಕ್ರಮಂ ವಾರ್ತಿಕಂ. ನಿಯೋಗ ಅವಧಾರಣಂ. ವಾರ್ತಿಕ ಸೇಸ್ ಅನಿಯೋಗೆ, ವೆನ್ ಏವ ಇಸ್ ಯೂಸ್ಡ್ ಇನ್ ಸೆನ್ಸ್ ಆಫ್ ಅನಿಯೋಗ, ದೆನ್ ದೇರ್ ಇಸ್ ಪರರೂಪ ಇನ್ಸ್ಟೆಡ್ ಆಫ್ ವೃದ್ಧಿ. ನಿಯೋಗ ನಾಮ ಅವಧಾರಣಂ. ದ ಮೀನಿಂಗ್ ಆಫ್ ಏವ ಇಸ್ ನಿಯೋಗ ಆರ್ ಅವಧಾರಣ, ದಟ್ ಇಸ್ ಸರ್ಟೆಂಟಿ ಆರ್ ಸರ್ಟನ್ಮೆಂಟ್. ತ್ವಮೇವ ಮೀನ್ಸ್ ಡೆಫಿನೆಟ್ಲಿ ಯು, ಇಸ್ ಸರ್ಟನ್ಲಿ ಯು. ಸೊ ದಟ್ ಸರ್ಟನಿಟಿ ಈಸ್ ದ ಮೀನಿಂಗ್ ಆಫ್ ಏವ, ದಟ್ ಇಸ್ ನಿಯೋಗ ಆರ್ ಅವಧಾರಣ. ಸೊ ವೆನ್ ಇಟ್ ಈಸ್ ಯೂಸ್ಡ್ ಇನ್ ದ ಸೆನ್ಸ್ ಆಫ್ ಅನಿಯೋಗ, ವೆನ್ ದರ್ ಇಸ್ ನೋ ಸರ್ಟನ್ಟಿ ಅನ್ಸರ್ಟನ್ಟಿ, ತದೈವ ಇದಂ ಪರರೂಪಂ. ಅವಧಾರಣಂ ನಾಮ ಅನ್ಯಯೋಗ ವ್ಯವಚ್ಛೇದ. ಟು ಸೇ ದಟ್ ನಥಿಂಗ್ ಎಲ್ಸ್ ಇಸ್ ಕರೆಕ್ಟ್, ಓನ್ಲಿ ದಟ್, ಹಾಗೆ ದಟ್ ಇಸ್ ದ ಸೆನ್ಸ್ ಇನ್ ವಿಚ್ ಯೂಸ್ ಏವ. ರಾಮ ಏವ ಶೂರ, ಇಫ್ಟೆ ನೋಬಡಿ ಎಲ್ಸ್ ಇಸ್ ಅ ಶೂರ. ರಾಮ ಇಟ್ ಇಸ್ ಓನ್ಲಿ ರಾಮ ಹೂ ಇಸ್ ಅ ಶೂರ. ಸೊ ಅನ್ಯಯೋಗ ವ್ಯವಚ್ಛೇದ ಏವಕಾರಸ್ಯ ಅರ್ಥ. ಕ್ವೇವ ಭೋಕ್ಷ್ಯಸೆ ಇತಿ ಉದಾಹರಣಂ ದತ್ತಂ. ಕ್ವ ಏವ ಭೋಕ್ಷ್ಯಸೆ ಮೀನ್ಸ್ ವೇರ್ ಆಲ್ ಡು ಯು ಈಟ್, ದರ್ ಇಸ್ ನೋ ಸರ್ಟನ್ಟಿ ಟು ವೇರ್ ಯು ಈಟ್, ಯು ಈಟ್ ಎವ್ರಿವೇರ್ ಆಸ್ ಯು ಪ್ಲೀಸ್. ಇತ್ಯರ್ಥೆ ಕ್ವೇವ ಭೋಕ್ಷ್ಯಸೆ ಇತಿ ಉದಾಹರಣಂ. ತತ್ರ ಏವಕಾರ ಅನಿಯೋಗ, ದರ್ ಇಸ್ ನೋ ಸರ್ಟನ್ಟಿ ಆಸ್ ಟು ವೇರ್ ಹಿ ವಿಲ್ ಈಟ್. ಇಟ್ ಆಕ್ಚುಲಿ ಇಂಡಿಕೇಟ್ಸ್ ಅನ್ಸರ್ಟನ್ಟಿ. ಕ್ವೇವ ಭೋಕ್ಷ್ಯಸೆ ವೇರ್ ಆಲ್ ಡು ಯು ಈಟ್ ಇತಿ ಅನಿಯೋಗೆ ಪರರೂಪಂ ಭವತಿ ಕ್ವೇವ ಇತಿ. ಅನವಕ್ಲುಪ್ತೌ ಏವ ಶಬ್ದ, ಅನವಕ್ಲುಪ್ತಿ ನಾಮ ತದೇವ ಅನಿಯೋಗ. ದರ್ ಇಸ್ ನೋ ಸರ್ಟನ್ಟಿ. ಅನಿಯೋಗೆ ಕಿಂ ತವೈವ, ತವೈವ ಇತ್ಯುಕ್ತೆ ಇಟ್ ಇಸ್ ಓನ್ಲಿ ಯುವರ್ಸ್ ಅಂಡ್ ನಾಟ್ ಎನಿಬಡಿ ಎಲ್ಸ್. ಸೊ ಯತ್ರ ನಿಯೋಗ ಅವಧಾರಣಮಸ್ತಿ ತತ್ರ ವೃದ್ಧಿ, ತವ ಏವ ತವೈವ ಇತಿ ವೃದ್ಧಿ. ಯತ್ರ ತು ಅನಿಯೋಗ ನಾಮ ಅನವಧಾರಣಂ, ತತ್ರ ಪರರೂಪಂ ಕ್ವೇವ ಭೋಕ್ಷ್ಯಸೆ. So this is all what is there in the Kaumudi. So what is the Manorama add to it? Niyogo avadharanam iti. Yattu ahuhu. Navakluptau yadadrishtaha pararupasya gocharaha. Navakluptihi nama anavakluptihi. When there is, it is seen in the sense of uncertainty, pararupasya gocharaha. So it will get pararupa. Evastu vrishayo vrithe niyame ayam yadabhave. Yada ayam evakaraha niyame. ನಾಮ ನಿಯೋಗೆ, ವೆನ್ ಇಟ್ ಇಸ್ ಯೂಸ್ ಟು ಎಸ್ಟಾಬ್ಲಿಷ್ ಅ ಸರ್ಟನ್ ರೂಲ್, ತದಾ ವೃದ್ಧೇ ವಿಷಯ, ದೆನ್ ಇಟ್ ವಿಲ್ ಗೆಟ್ ವೃದ್ಧಿ. ಸೊ ದಿಸ್ ಇಸ್ ಅ ಶ್ಲೋಕ ವಿಚ್ ಇಸ್ ಸೀನ್ ಇನ್ ಸಮ್ ವೃದ್ಧಿ ಗ್ರಂಥ. ಏತೇನ ನಿಯೋಜನಂ ನಾಮ ನಿಯೋಗ ವ್ಯಾಪಾರ ಇತಿ ವ್ಯಾಖ್ಯಾನಂ ಪರಾಸ್ತಂ. ಸಮ್ ಪೀಪಲ್ ದೇ ಇಂಟರ್ಪ್ರೆಟ್ ನಿಯೋಗ ಆಸ್ ನಿಯೋಜನಂ ಟು ಯುನೋ ಟು ಮೇಕ್ ಡೂ ಸಮಥಿಂಗ್, ದಟ್ ಇಸ್ ವ್ಯಾಪಾರ ಅಂಡ್ ಎಫರ್ಟ್ ಇತ್ಯರ್ಥೆ ಕೇಚನ ವದಂತಿ. ಸತ್ ಪರಾಸ್ತಂ, ದಟ್ ಇಸ್ ರಾಂಗ್. ನಿಯೋಗ ನಾಮ ಅವಧಾರಣಂ, ಅತಏವ ಅಯಂ ಶ್ಲೋಕ ಅಪಿ ನಾವಕ್ಲುಪ್ತೌ ಪರರೂಪಸ್ಯ ನಿಯಮೇ ವೃದ್ಧಿ ಇತಿ ಸ್ಪಷ್ಟಂ ವದತಿ. ಉದಾಹರಣಾನ್ಯಪಿ ದರ್ಶಯತಿ. ಯದೈವ ಪೂರ್ವಂ ಜ್ವಲನೇ ಶರೀರೆ ಯದಾ ಏವ ಯದೈವ ಮಮೈವ ಜನ್ಮಾಂತರ ಪಾತಕಾನ ಮಮೈವ ಪಾತಕಃ ಮಮ ಏವ ಇತ್ಯಾದಿ ಪ್ರಯೋಗ ವಿರೋಧಾತ್. ಅತ್ರ ಸರ್ವತ್ರ ನಿಯೋಗ ನಾಮ ಅವಧಾರಣಂ ಇತ್ಯರ್ಥೇ ಏವ. ವ್ಯಾಪಾರ ಇತ್ಯರ್ಥ ನಾಸ್ತಿ ಅತ್ರ. ಉದಾಹೃತ ವೃತ್ತಿಸ್ಥ ಶ್ಲೋಕ ವಿರೋಧಾತ್. ಸೊ ದ ವೃತ್ತಿ ಶ್ಲೋಕ ದಿಸ್ ಒನ್ ಆಲ್ಸೋ ಕ್ಲಿಯರ್ಲಿ ಸ್ಟೇಟ್ಸ್ ದಟ್ ದಟ್ ಇಸ್ ನಿಯೋಗ ಇಸ್ ನಿಯಮ ಆರ್ ಅವಧಾರಣ. ಲಘಶಾಕಟಾಯನಸ್ಯೈವ ತಪಸ್ತಪಃಕರ್ಮಕಸ್ಯೈವ ಇತ್ಯಾದಿ ಸೌತ್ರ ಪ್ರಯೋಗ ವಿರೋಧಾತ್. ಸೊ ಈವನ್ ಇನ್ ದ ಸೂತ್ರಸ್ ಪಾಣಿನಿ ಯೂಸಸ್ ವೃದ್ಧಿ ವೆನ್ ಏವಕಾರ ಇಸ್ ಯೂಸ್ಡ್ ಫಾರ್ ನಿಯಮ. ದೀಸ್ ಆರ್ ಕಾಲ್ಡ್ ನಿಯಮ ಸೂತ್ರಸ್. ಓಕೆ. ಲಂಗಃ ಶಾಕಟಾಯನಸ್ಯೈವ ಶಾಕಟಾಯನಸ್ಯ ಮತೆ ಏವ ಲಂಗಃ ಕಿಮಪಿ ಕಾರ್ಯಂ ಭವತಿ. ತಪಸ್ತಪಃ ಕರ್ಮಕಸ್ಯೈವ सर्वत्र नियोगः नाम अवधारणमित्येव अर्थः. नियोगः व्यापारः इति व्याख्यानं न साधु विरोधात्, बिकॉज इट गोज अगेंस्ट द प्रयोगास, द श्रुति श्लोक एंड ऑल्सो द सूत्र प्रयोगास. यत् श्लोकवार्तिकमिदम् इत्याहुः तद्रभसात्. And he also says that this shloka is not a vartika. It is just present in some vritti. Vrittistha shloka, natu vartikam. So, shakandhvarishu pararupam vachyam. I think we will stop here. Okay, we'll stop here. There is still class. Atsandhi Prakarana will be over. Okay, so in the next class, we'll probably be finishing Atsandhi and then taking up Prakriti Bhava, okay, which is a part of Atsandhi. Okay, so there are two things. First thing, there is no class next week. I'm very sorry that there's a frequent break, but I'm going out of town, so there is no class next week. So I would suggest that all of you in that time sit down and do the assignment on Etyatha Sutra. Anyway, that this time is allotted for Manorama, so you might as well use that time for studying Etyatha Sutra and completing that assignment. Okay, that's the thing. First thing, so there is no class next week. We'll be completing Asandhi Prakarana after that, and there will be a test after we complete Asandhi Prakarana. Maybe we can do a test together with Atsandhi and Prakriti Bhava together. But I'm giving you enough notice so that you can start studying. Probably after June 15th, there will be a assignment. I mean, you can either treat it as an assignment or a test on Atsandhi Prakarana. So we'll stop here. Jayan Jayam Param Brahma Smaram Smarangur Or Kiraha Siddhanta Kaumudi Vyakhyam Kurmah Praudhamanoramam.